लेखनं त्रयः न्यायनिर्णयं नमामि 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 च किं त्वमेवं सर्वसम्भाषणाविवादं श्रूयन्ते इदमस्ति अहमेवम् इदं सम्भाषणानि सम्पूर्णदिनान्तं श्रूयन्ता तु च तुमेव वदन्ते अहमेव श्रूयन्ताम् अहमेव ग्रामेषु प्रधानाधिकारी एकः स्त अयं धैर्यशाली च निष्पक्षन्यायनिर्णेतः किम् इदं सत्यम् अपि च पश्यामि सः किं न्यायं ददा सत्यं सत्यम् इदं शिक्षा तत् शिक्षा दुर्भरं तत् मानवस्य अपराधामूल्यं बहूनि कठिनं परन्तु सस्य सस्यम् एषा निर्णयं सत् निर्णयं महादुष्टम् अहमेव निर्णयम् इयं मानवं पुरातनकालेषु अस्ति अहम् अयमेव इदं कठिनसमस्येषु इदं तस्य जीवनेन सम्पूर्णजीवनानन्दं नास्ति अहं सम्पूर्णं तत्विधानेन शोचयन्ति तत् आज्ञा बहुत् कठिनम् ईश्वरस्य तस्यस्य प्रमाणं पुनः स्फुरण ददाति तस्य प्रयत्नं सिद्धन्ति सः इदं पश्यन्ति तेषु न्यायं सन्ति इदं वाग्दानं यथार्थं सत्यं सः तस्य वाग्दानं पुनः सम्पूर्णनिक्षिप्तं न तस्य समीपेन एकः समस्या उपशमयन्ति तत् उद्घाटनं सः तस्य प्रधानमनुष्याणाम् इदं विधानं श्रूयन्ते अहमेव हृदयेषु इदं समस्या अधिकं भारं स्रवन्ति अहमेव मित्राणां दुष्टकार्यं श्रूयन्ते सः तेषु इदं विधानं वद एवं त्वं न्यायनिर्धारणं करोति इदं यदार्थं सत्यं पुनः एवं दुष्टकार्यं सन्ति तत्कार्येषु शिक्षारुष्मं तदात्मां ददति सत्यं तेन तस्य मनुष्याणां दरिद्रः च धनिकः केन इदं दोषमनुष्या अहमेव मित्रम् अथवा अहमेव वयेषु प्रेमं कुर्वन्ति पुनः तस्य मनुष्याणां शिक्षारुष्मम् अहमेव ददा इदं न्यायेषु सा तुदिनिर्णयं करिष्यति केन इदं शिक्षास्मृतिरुष्मं सा यदार्थं ददा च अहमेव सम्पूर्णं कुर्वन्ति केन इदं वार्ता यदार्थं सत्यं भवति हा इदं वार्ता सम्पूर्णं सत्यं यदार्थं च इदं वार्ता श्रूयन्ते अदं दुष्टनाय मनुष्यः बहु दुःखेषु पदन्ति च अहमेव स्मृतिपदेन पदन्ति किम् अहमेव मित्रम् इदं यदार्थं सत्यं पुनहेषु इदं वार्तां तस्यां सम्मतियन्ति इदं प्रधानामनुष्याः तत् प्रधानामनुष्याम् इदं वार्ता तस्य हृदयेषु बन्धितवान् किं मित्रं त्वं जानन्ति इदं वार्ता इदमेव एकः कथा इदं त्वमेषु प्रतिमनुष्याणाम् एकः कथानि ईश्वरस्य वार्ता अयं नेर्परितम् किम् अयमेषु प्रति एकः व्यक्ति एकं दिनम् ईश्वरस्य समीपेन तिष्ठयन्ति सत्यं केन इदं महन्ति कार्यं च न्यायं सः युष्मान् हृदयानी पश्यन्ति इव युष्मान् पापकार्याणां सर्वं जानन्तः सः ग्रहितं युष्मान् पापः च दोषः तस्य शिक्षास्मृतिरुसुमम् इदं दीर्घकालस्य रूपमेण सन्ति इदमेषु युष्मानं किं कर्तव्यम् अहमेव किं मार्गेण ईश्वरस्य शिक्षा सम्पूर्णं करिष्यामि हमेषु किं किम् ईश्वरस्य शिक्षारुस्मं न ददन्ति ईश्वरः इदं वार्ता सम्पूर्णं ग्रहितवान् च इदं मार्गेषु सः तस्य प्रियपुत्राणाम् इदं लोकेषु ददति क्विनेन तत् युष्मानस्य स्थलम् अहमेव शिक्षास्मृति तस्य भुजस्कन्धानां धरियन्ति क्विं त्वमेव ज्ञापकम् इति किमेषु अहं तस्य स्यावधा इदमेव शिक्षास्मृति मृत्युः युष्मान् शिक्षास्मृति तस्यमेव भरिघ्नान् निर्णयं करोति ईश्वरस्य तस्य पुत्रनेषु तस्य जीवनम् इदं कृशेण बलिदानं करोति किमेव अहमेषु पापनेषु क्षमा कुर्वन्ति च किं दोषाः च पापः तस्य गुप्तदानाः ग्रहणार्थं संसिद्धः च युष्मानां पापाः स्वीकरणे अङ्गीकारं निर्णयं निर्णयन्ति इदमेव न्यायेषु त्वं जीवनं साध्यं च तस्य भयङ्करेण शिक्षे सन्ति किमेव युष्मानस्य पापाः ऊर्ध्वं पतन्ति ईश्वरस्य पुस्तकम् इदमेव साम्प्रतं च इदमेव एकः व्यक्ति एकं दिनं सा मरणं तथ्यम् च पुनः तत् मरणानन्तरम् एकः न्यायं दिनम् आसन्ति च तस्य अनन्तरं परमृत्युः तथ्यं तत् बहु भयानकं किमेवं मम मित्रम् ईश्वरेषु युष्मानार्थम् एकं मार्गं निर्णयं कुर्वति पुनः युष्माहं युषिषु नामेषु विश्वासं कुर्वन्ति तथ्यं तस्य मृत्येषु अस्माकं रक्षणम् आसीत् ईश्वरस्य पुस्तकं वदति ईश्वरस्य तस्य महोन्नत उद्घाटनं किमेव उस्मानां दद तस्येषु पिताः किं वद युष्मानां केन रक्षणयन्ति नेषु येणुं मार्गं मागच्छ किं हमेशा युषिष्य मार्गेषु विश्वासं ददान्ति च अस्माकं रक्षणरूपेषु त्वं विश्वसयन्ति तत् त्वमेषु ईश्वरस्य न्यायनिर्णये तु जीवनम् आसीत् अहमेषु त्वमार्धं वार्ता वदति ईश्वरस्य पुत्रः प्रभु ईशस्य नामार्धम्